வாக்கிய வாக்கியக்காரம் வரவசன் பாஷ்யக்காரம் பதஞ்சலிம் பாணினிம் சூத்திரக்காரஞ்ச பிரணதோஸ்மி மணித்ரயம் நத்வா சரஸ்வதீம் தேவீம் சுத்தாம் குண்யாம் கரோம்யாம் பாணினிய பிரவேசாய லகுசித்தாந்த கௌமுதீம் குருதேவ கதி குருமேவ பஜே குருநைவ சஹஸ்தி நமோ குருவே நகுரோ பரமம் சிசுரஸ்தி குரோ மதிரஸ்தி குரோ மோ பாஹி குரோ ஓ நம பாணினி காத்யாயின பதஞ்சலிபியா சப்த வித்யா சம்பிரதாய பிரவர்த்தகேபியா முனிபியா நமோ மகத்யா நமோ குருபியா. சுதத்தேவா, நமஸ்காரம். ஓ अस्तु, यथाशक्ति अहम् उच्चैः वदामि. यथाशक्ति इदानीं सम्यक् श्रूयते वा? श्रूयते. अस्तु, इदानीम् अद्य सर्वनामशब्दानां रूपाणां विषये किञ्चित् चर्चां कृत्वा अग्रे गच्छामः. अत्र सर्वादीनि सर्वनामानि इति अग्रिमसूत्रं विद्यते. तत्र इतः परं सर्वनामशब्दानां प्रक्रियाविषयः. अतः किञ्चित् सर्वनामशब्दानां रूपाणि सर्वे जानन्ति वा इति किञ्चित् यदि विस्मृतवन्तः इत्यादि किञ्चित् पुनरावर्तनं करणीयम् रूपाणां विषये. अतः इदानीम् आरम्भे सर्वशब्दस्य विषये अहं पृच्छामि, कृपया रूपाणि वदन्तु. अकारान्तपुल्लिङ्गः सर्वशब्दः, सर्वशब्दः सर्वशब्दस्य रूपाणि. एवं प्रारम्भं कुर्मः. महादेवन् महोदय, सर्वनामशब्दानां प्रक्रिया विषये अध्ययनात् पूर्वं किञ्चित् रूपाणां विषये किञ्चित् पुनरावर्तनं कृत्वा अग्रे गच्छामः. अद्य अकारान्तपुल्लिङ्गः सर्वशब्दः, सर्वशब्दस्य रूपाणि कृपया महादेवन् महोदय वदतु. एतत् बहु इम्पार्टेण्ट् अस्ति, इत्युक्ते प्रधान अंशः. रूपाणां ज्ञानं विना यदि प्रक्रियाज्ञानम् अस्माभिः क्रियते तर्हि क्लेशः भवति. तदर्थमेव पुनरावर्तनकक्षा. अस्तु, अहमपि कदाचित् विस्मरणम् अनुभवामि. यथाशक्ति तर्हि एकं कार्यं करोमि. एकवारं जानकी भगिनी, रूपाणां विषये किञ्चित् ज्ञानम् अपेक्षितमेव, यतोहि अस्माभिः इष्टसिद्धिः क्रियते. इदानीं रूपज्ञानं विना कथं तत्र प्रक्रिया इत्यादि पठनम् इति एवमस्ति. अतः शारदा भगिनी, अकारान्तपुल्लिङ्गः सर्वशब्दः. शारदा भगिनी ఆఫ్లైన్ ఇది దృశ్యతే ఇలా ప్రశ్న విద్యా భగిని అకారం అవశ్యం ఉత్తమం ఉత్తమం అత్యుత్తమం ఆకారాంత స్త్రీలింగ సర్వా శబ్ద మహాదేవ మహోదయ శబ్దమందిరి అస్తి వా గృహే దృష్ట్యా వక్తుం శక్యతే వా ఓ ట్రావెలింగ్ మధ్య అస్తి అస్తు అస్తు కోయంబత్తూర్ మధ్య అస్తి అస్సు అహం శబ్దం అత్ర శబ్దమంజర్యా కశ్చన భాగ విద్యతే కదాచిత్ దోషా భవేయు తథాపి సమీకృత్య అగ్రే గచ్చామ ఏకం ఫైల్ అస్తి ఫైనల్ ఫైల్ अस्तु स्क्रीन मध्ये इदानीं दृश्यते वा महादेव महोदय आकारान्त स्त्रीलिङ्गः सर्वा शब्दः సర్వాసు ఇది తత్ర సూ ఏ తూ అస్తి ఉకార అస్తి తత్ర ఉకార అస్తి దృశ్యతే సంటి మధ్య అస్తి అస్తు ఇదానీ హే సర్వ సంబోధ ఎతో హి స్త్రీలింగ ఆకారాంత స్త్రీలింగ అతః హే సర్వే హే సర్వే హే సర్వ ఇదానీ అకారాంత నపుంసకలింగ ఏతత్ పుల్లింగ ఇది అత్ర దత్తం నపుంసకలింగ సర్వశబ్ పుల్లింగ ఓకే అగ్రిమశబ్దః అగ్రిమశబ్దః విశ్వశబ్దః విశ్వశబ్దః సర్వశబ్దవత్ ఇదానీ ఉభశబ్దః ఉభశబ్దః సుజాత భగిని ఉభశబ్దః इति भवति तद् पुल्लिङ्गः वा पुल्लिङ्गः वा स्त्रीलिङ्गः वा तत् अकारान्तपुल्लिङ्गः नित्यं द्विवचनान्तः नित्यं द्विवचनान्तः उभशब्दः इदानीम् उभाशब्दः अस्ति वा नास्ति वा हा तर्हि उभाशब्दः कथं भवति उभाशब्दः उभे आकारान्तत्रि एवमेव इदानीम् उभयशब्दः इदानीम् उभयशब्दः एवं तत्र उभयशब्दः उभयशब्दस्य विषये तत्र मतद्वयं विद्यते उभयशब्दस्य विषये द्विवचनं न भवति उभयशब्दस्य द्विवचनं नास्ति अतः एकवचनं बहुवचनमेव अस्ति इदानीम् एकवचनं बहुवचनम् एव अस्ति इत्युक्ते कथं रूपं कथं भवति उभयः पुल्लिङ्गे उभयः सर्वनामशब्दः उभये इदानीम् एवमेव द्वितीयाभक्तिः पञ्चमी उभयस्य उभयेषाम् हे उभय हे उभये एवं स्त्रीलिङ्गे कथं भवति तत्र उभयी इति शब्दः उभयः उभयी उभयः हे उभयी हे उभयः नदी शब्दवत् द्विवचनं नास्ति उभय्या उभयीभिः एवं भवति एवं बहुवचन नपुंसकलिङ्गरूपमपि भवति इदानीम् अग्रिमशब्दः कतरशब्दः अहं तत्र सर्वादिगणे पठित पञ्चत्रिंशत् शब्दानां रूपाणि भवत्यः जानन्ति वा इति किञ्चित् रूपाणां ज्ञानम् अद्य पुनरावर्तनं कृत्वा सुप्रक्रियाविषये ज्ञानं प्राप्स्यामः सर्वादिगणे पठिताः शब्दाः तत्र मूले कौमुद्याम् एवमस्ति सर्वविश्व उभ उभय दतर दतम अन्य अन्यतरा इतर त्वत् त्व नेम समासिमा पूर्वपरावर दक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायां समज्ञातिधनाख्यायाम् अन्तरं बहिर्योगोपसंज्ञानयोः त्यद् तद् यद् एतद् इदम् अदस्येक द्वि युष्मद् अस्मद् भवतु किम् इति पञ्चत्रिंशत् सर्वादीनि सर्वनामानि
சர்வாதிகணே பட்டிதான் பட்டித சப்தானாம் ரூபாணி வயம் ஜானீமஹவா. அக்ரிம பிரஷ்னஹ ரூபம் எதி ஜானீமஹ அர்த்தமபி ஜானீமஹவா. அர்த்தம் எதி அஹம் மயா அர்த்தம் நவத்தும் சக்யதே யதஹ பவந்தஹ சர்வே ஜேஷ்டாஹ கிஞ்சித் கோஷாதி சர்வம் திருஷ்ட்வா ஜ்ஞாதவ்யம் பவதி. அதஹ ஸ்பூன் ஃபீடிங் ந க்ரியதே. கதரேஷ்யா. கதரத் கதரத்தே கதரத் பவதி ஏமேவ பவதி. ஹா ஃபீலிங்க கதரே கதரா சமீச்சீனம். ஏதத் கதர விஷய ஏவம் கதம விஷய ஹா கதமே கதமாக அப்படி இவமேவ பவதி. ஏக நிமிஷம் இதானி ஸ்ரூயதே வா. 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 ஸ்ரூயதே வா. கதரசப்தஹ அபவத். கதம தசர கதம கதம சப்தஹ அபவத். இதானி அன்ய அன்ய சப்தஹ. ஹா அன்யஹ அன்யோ அன்யே சர்வ சப்தவத்தேவ பவதி. ஹா அன்ய சப்தஹ. அனந்தரம் அன்யதர கதரவத் பவதி. அஸ்து அன்யதர அன்யதர இதர समीचीनम्। इदानीम् इतर त्वत् त्वत् शब्दः त्वत्शब्दः अश्रुतपूर्वः शब्दः अस्तु। त्वत्शब्दः अदन्तशब्दः एव। किम् अस्ति इत्युक्ते एकनिमिषं, त्वत् त्व इति अस्ति किल, त्व इति अकारान्तशब्दः, त्वत् त्वत् त्व अकारान्तशब्दः, त्वः त्वौ त्वे इति भवति। त्व इत्यस्य अर्थः इतर इतरशब्दस्य अर्थः एव। इतरशब्दस्य अर्थः कः? अन्य अथवा भिन्नः इत्यादि अर्थः भवति किल। एवमेव त्व इत्यस्यापि त्वः त्वौ त्वे त्वं त्वौ त्वान् त्वेन त्वाभ्यां त्वैः त्वस्मै त्वाभ्यां त्वेभ्यः तस्मात् त्वाभ्यां त्वेभ्यः त्वस्य त्वयोः त्वेषां त्वस्मिन् त्वयोः त्वेषौ हेत्वा हेत्वौ हेत्वा हे हे सर्व हेत्वा हेत्वौ हेत्वे हेत्वे इति रूपाणि भवन्ति अकारान्तपुल्लिङ्गः त्वशब्दस्य। इदानीं त्वशब्दानन्तरं नेम नेम इत्यस्यापि अकारान्तवद्देव सम। इदानीं सम इत्यस्य कथं भवति? सम इत्यस्य तु श्रुतं किल, स एव अत्र अद्यतनपाठस्य विषयः स एव। सर्वनामशब्द समशब्दस्य कः अर्थः? सर्वादिगणे पठितः सः शब्दः सर्वनामशब्दः, अतः सम इत्यस्य अर्थद्वयं विद्यते। सर्वनामशब्दस्य समशब्दः सर्वनामशब्दस्य समशब्दः तत्र उच्यते, समेषाम् आस्तिकभक्तमहाजनानां क्षेमस्थैर्यवीर्यमितय आयुरारोग्य इति पुरोहितः सङ्कल्पसमये समेषां भक्तजनानाम् इष्टकाम्यार्थसिद्धिः इत्यादि आशीर्वादसमये अपि सः वदति। समेषाम् इति तु सर्वेषाम् इति सम इति अर्थः, समेषाम् इत्यस्य पर्यायपदं सर्वेषाम्। एवं सम इत्यस्य सर्वनामशब्दस्य सर्व इत्येव अर्थः। परन्तु आचार्यः किं करोति, यथासङ्ख्यम् अनुदेशसमानामिति अस्ति सूत्रं, तत्र समा यथासङ्ख्यम् अनुदेशसमानामिति अस्ति, तत्र तुल्यार्थः विवक्षितः, यदा तुल्यार्थः विवक्षितः तदा सर्वादिगणे न पठितः तुल्यार्थ समशब्दः न तु सर्वनामशब्दः एवम् अस्माभिः ज्ञातव्यं भवति. अतः समानाम् समानामि समानामित्यपि भवति समेषामित्यपि भवति. परन्तु अत्र तु सर्वनामशब्दे सर्वनामशब्दस्य रूपाणि कथं भवन्ति? समः समौ समे एवमेव भवति. समं समौ समान् समेन समाभ्यां समैः समस्मै समाभ्यां समेभ्यः समस्मात् समाभ्यां समेभ्यः समस्य समयोः समेषां समस्मिन् समयोः समेषु हे सम हे समो हे समे इति समशब्दस्य रूपाणि. अस्तु, इदानीम् अग्रिम शब्दः सीमा. सीमाशब्दस्य कः अर्थः? सीमाशब्दस्यापि सर्व इत्येव अर्थः. सीमः सीमौ सीमे. अत्र सर्वशब्दस्य प्रधानत्वात् सुलभत्वात् बहुप्रयोगत्वात् सर्वशब्दः एव स्वीकृतः, न तु समशब्दः वा सीमशब्दः वा. समशब्दस्तु अस्ति पौरोहित्ये, परन्तु सीमशब्दः तु नास्त्येव, प्रयोगे नास्त्येव. अतः अस्माभिः किञ्चित् क्लेशः, अस्माकं कृते क्लेशः भवति. तथापि अस्माभिः इदानीं वयं वैयाकरणाः, सर्वेषां शब्दानां ज्ञानम् इत्यादिकम् आवश्यकम्. अतः सीमा, सीमा इत्युक्ते सर्व अर्थस्तु सर्व एव. सीमः सीमौ सीमे इत्यादि भवति. इदानीं त्वनेम समसीमा. पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम्. इदानीं पूर्वपरावध पूर्वः तु पूर्वः पूर्वः पूर्वे, परः तु अवरः. समीचीनं. दक्षिणः दक्षिणः दक्षिणौ दक्षिणे एवमेव भवति. अकारान्तवत् इत्युक्ते एवमेव. उत्तरः अपि एवमेव, अपरः अपि एवमेव, अधरः अपि एवमेव. एवम् एतादृश एते सर्वे तत्र अत्र गणसूत्रमिति पूर्वपरावदर परावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् इत्यत्र सप्तशब्दानि विद्यन्ते. दक्षिण इत्युक्ते तत्र अर्थं किम् इदानीम्?
ఏమస్తి వా పూర్వపరావధర దక్షిణోత్తరాన్ని వ్యవస్థాయా అసంజ్ఞాయ సంజ్ఞా న భవేత్. పూర్వ ఇది కచ్చిత్ సంజ్ఞా న భవేత్. అస్తు తత్ర కదాచిత్ అవర ఉత్తర అపర అధర అధ ఇది తో అవ్యయమస్తి. అధర ఇది నా అవ్యయం నాస్తి. తదేవ అస్మాభిః స్మర్తవ్యం. కదా అవ్యయం భవతి, కదా అవ్యయం సర్వనామశబ్దః ఇత్యుక్తే అత్ర విభక్తి విపరిణామః అస్తి. అవ్యయం ఇత్యుక్తే విభక్తి విపరిణామః నాస్తి యథా అధ ఇత్యత్ర. ఏవం స్మర్తవ్యమస్తి. ఇదనీ అగ్రిమ కిం స్వజ్ఞాతి ధనాఖ్యాయా గణసూత్రే అర్థ సూచిత స్వమజ్ఞాతి ధనాఖ్యాయామిత్యత్ర అత్ర ఏకనిమిషం దక్షిణశబ్దస్య ఏకనిమిషం అహం వదామి. పూర్వపరావర దక్షిణోత్తరాపరాధరాణి వ్యవస్థాయాం అసంజ్ఞాయాం. యదా వయం సూత్రం జ్ఞాస్యామః తదా అర్థం జ్ఞాతుం శక్యతే. పరంతు అత్ర గణసూత్రే ఏతత్ గణసూత్రం విద్యతే. గణసూత్రం నామ సర్వాదిగణే పఠితం ఏతత్ సూత్రం. ఇదానీ పూర్వ కాశీ పూర్వ ఇది అస్తి. అస్మాభిః ప్రశ్న క్రియతే కుతః పూర్వ ప్రయాగాత్ పూర్వ. ప్రయాగాత్ పూర్వాణ అస్మాకం తత్ర పూర్వదిశా స్థిత కాశీదేశ ఇది తత్ర అవధి అవధి భవతి. అవధి ఇత్యుక్తే కిమపి సీమా భవతి. ఏతాదృశ అవధి అస్తి చేత్ వ్యవస్థా అస్తి ఇది ఉచ్యతే. ఏవం వ్యవస్థ దక్షిణ దక్షిణ ఇత్యుక్తే కుశలాః ఇత్యర్థః. దక్షిణ ఇత్యత్ర దక్షిణ ఇది దిక్ నాస్తి. పూర్వాది శబ్దస్తు దేశవాచి కాశీ పూర్వ కాలవాచి. ఇదనీ పూర్వే రావణాదయ ఆసన్ ఇది వయం వదామ. పూర్వే రావణాదయ ఆసన్ తదా కాలవాచి వ్యవస్థ అస్తి. ఇదనీ దిగ్వాచి వ్యవస్థ అపి అస్తి. పూర్వస్యాం రవిరుదేతి యది వ్యవస్థాయాం వ్యవస్థాయామేవ సర్వనామ సంజ్ఞ. ఏతాదృశ వ్యవస్థ అస్తి చేత్ సర్వనామ సంజ్ఞ. తదాపి వ్యవస్థ భవేత్ పరంతు సంజ్ఞాన భవేత్. తదా ఏవ అస్య సర్వనామ సంజ్ఞా ఇది అస్తి. ఇదానీం దక్షిణాః ఘాతకాః ఇత్యుక్తే దక్షిణాః ఇత్యుక్తే చతురాః ఇది.
अस्तु स्वमज्ञाति गणाख्यायाम इत्यत्र शब्द रूपं कथं भवति स्वः स्वौ स्वे स्वाहा इति भवति स्वः स्वौ स्वे स्वाहा एवम् अकारान्तत्वात् सर्वशब्दवत् रूपं भवति स्वमज्ञाति गणाख्यायाम स्वं नाम धन तत्रैव अस्ति ज्ञाति धन अज्ञाति धनाख्यायाम तर्हि स्वम स्व इत्यस्य आत्मा आत्मीय ज्ञाति धन इति चत्वारः अर्थाः सम्भवन्ति स्व इत्यस्य आत्मा इत्युक्ते स्वयं आत्मीय स्वस्य इत्य स्व इत्यस्य स्वस्य इति अर्थः ज्ञाति इत्यपि अर्थः धनम् इत्यपि अर्थः एवं स्व इत्यस्य अत्र उक्तं ज्ञाति धनाख्यायाम् ज्ञाति ज्ञाति न स्वीकरणीयः इत्युक्ते अज्ञाति धनाख्यायाम् अज्ञाति इत्युक्ते बान्धव तस्य स्वीकारः न करणीयः धन इत्यस्यापि न करणीयः तर्हि द्वौ अर्थौ एव स्वीकर्तव्यौ आत्मा आत्मीय इति यदा आत्मा आत्मीय इति अर्थः स्वशब्दस्य भवति तदा सर्वनामसंज्ञा भवति इति गणसूत्रं वदति स्वमज्ञाति धनः एतत् गणसूत्रं गणसूत्रं नास्ति इति मन्ये एतत् प्रधानसूत्रमेव हा अस्तु तर्हि स्वशब्दः अभवत् इदानीं सर्वनामपट्टिका पूर्व सर्वविश्व उभय गतर गतम अन्य अन्यत्र इतर नेम समसीमा पूर्वपरावधः तदभवत् समज्ञा अन्तरं हा अन्तरम् अन्तरशब्दः अन्तरशब्दस्य रूपम् अन्तरः अन्तरौ अन्तरे अन्तराः पूर्वशब्दवत् भवति अन्तरः अन्तरौ अन्तरे अन्तराः एवम् अन्तरेण अन्तरेण अन्तराभ्यामन्तरैः अन्तरस्मै अन्तराभ्यामन्तरेभ्यः अन्तरस्मात् अन्तरात् अन्तरस्मात् अन्तरात् अन्तराभ्यामन्तरेभ्यः अन्तरस्य अन्तरयोः अन्तराणाम् अन्तरस्मिन् अन्तरे अन्तरयोः अन्तरेषां सारि अन्तरस्य अन्तरयोः अन्तरेषाम् इत्येव भवति अन्तरस्मिन् अन्तरे अन्तरयोः अन्तरेषु हे अन्तर हे अन्तरौ हे अन्तरे हे अन्तरः पूर्वशब्दवत् एवं पूर्वादिनव नवशब्दाः इदानीं समाप्ताः इतर त्वत् त्व नेम समासीम पूर्वाधर पूर्वादि एवं अग्रिमशब्दः प्रथमचरम अन्तरं बहिर्योगोपसंज्ञायोः त्यज त्यज इत्यस्य शब्दमञ्जर्यम् अस्ति अन्तरशब्दः प्रायः नास्ति त्यज् तु अस्ति अस्ति वा नास्ति वा त्यत् समीचीनम्। पूर्व संपूर्ण शब्दं पठतु। त्यस्मै एव किल, त्यस्यै न, त्यस्मै। अस्तु अस्तु, एवं क्यः त्यौत्ये इति भवति। या अग्रिमशब्दः यद् अभवत्, यद् तद् यद् एतद् एतत् सर्वं जानन्ति इति मन्ये, तदहं न पृच्छामि। तद् यद् एतद् इदम् अदस् एतत्तु सर्वे जानन्ति। एक इदानीम् एकशब्दः तत् यदि एक एकशब्दस्य अर्थः कः, एकशब्दस्य अनेके अर्थाः सन्ति, एकशब्दस्य अनेके अर्थाः सन्ति। यदि सङ्ख्यावाची एकशब्दः अस्ति चेत् भवत्या यदुक्तं तत् सत्यम्, एकः एक एकं सङ्ख्यावाचि एकशब्दः। इदानीं सर्वाधिगणपठित एकशब्दः, सर्वाधिगणपठित एकशब्दः सर्वनामशब्दः अस्ति। अस्य अर्थः तत्र कोशे द्रष्टुं शक्यते। अन्य, प्रधान, प्रथम, केवल, साधारण, समान, अल्प इत्यादि अर्थाः भवन्ति। एतादृश अर्थस्थले एकः एक एकः एको एके इत्येव सर्वशब्दवत् भवति। एकः एको एके, हे एक हे एको हे एके, एकम् एको एका, एकेनैकाभ्यामेकैः। अतः एकशब्दः इत्युक्ते तत्र बाल इदानीं प्रौढशालास्तरे एकशब्दः इत्युक्ते सङ्ख्याशब्दः एव, एकः एको एकः एक एकमेव इत्येव प्रौढशालास्तरे स एव। परन्तु पाणिनीयव्याकरणपठनसमये एकशब्दस्य सर्वाधिगणे पठितत्वात् अस्य कश्चन विशेष अर्थः अस्ति इति ज्ञात्वा त्यद् त्यदादि त्यद् तद् यद् एतद् इदम् अदस् एक द्वि एक इत्यस्य एते अर्थाः भवन्ति सम्भवन्ति। एवमेव द्वि इत्यस्य कः अर्थः इत्यपि ज्ञातव्यं भवति। तत्र किमपि दत्तं वा द्वि इत्यस्य कः? एक द्वि, केवलं द्वि, सर्वनामशब्दे तदेव द्विशब्दः, सङ्ख्यावाचि द्विशब्दः दत्तम्। अस्ति वा? तत्तु अव्ययः अस्ति वा? तस्य अव्ययं किल। इदानीं द्विशब्दस्य प्रयोगः एतदहमपि दृष्ट्वा वदामि। सर्वः द्वि त्वत् एतद्वयम् अहं न उक्तवान्। त्वत् तकारान्त त्वत् द्वि एतस्य शब्दद्वयस्य रूपमहं न उक्तवान् इति चर्चा न कृता। अस्तु अग्रे गच्छामः। द्वि युष्मदस्मत् सर्वे जानन्ति भवतु भवत् शब्दः भवच्छब्दः सवनाशब्दः कथं भवति इदानीं भवत्याः नाम किमिति सम्भाषणशिबिरे पाठ्यते किल भवच्छब्दः तत्तु सर्वनामशब्दः वा अन्यः शब्दः वा सर्वनामशब्दः एव एवमेव पाठयामः। तर्हि प्रथमाविभक्ति प्रथमाविभक्तिरूपं किम् अस्तु भवान् भवन्तौ भवन्तः समीचीनं। तर्हि भवत् शब्दः अन्यत् शब्दः अपि विद्यते भूधातोः भवत् शब्दः भवन् पचन् पचन्तौ पचन्तः पचत् अस्ति किल शत्रुप्रत्ययान्तशब्दः भवत् शब्दः अस्ति भवता भवति तत्रापि अस्ति किल शत्रुप्रत्ययान्तशब्दः अपि अस्ति सर्वनामशब्दः अपि अस्ति। इदानीं शत्रुप्रत्ययान्तशब्दः कथम् आगच्छति भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां तर्हि भवतः नाम किम् इति अत्रापि आगतं किल परन्तु अस्माभिः सम्भाषणशिबिरे यः शब्दः पाठ्यते स तु सर्वनामशब्दः एव न तु भवत्शब्दस्य शत्रुप्रत्ययान्तं रूपम् इति ज्ञातव्यं भवति। अर्थव्यत्यासः अस्ति यद्यपि रूपसाम्यम् अस्ति अर्थव्यत्यासः अस्ति भवत्याः नाम किम् इत्युक्ते वाट् इस् युवर् नेम् भवतः इत्युक्ते तत्र भूशब्दस्य आफ् द पर्सन् हू इस् बीङ्ग् आफ् इति भवति किल भेदः अर्थभेदः अस्ति यद्यपि रूपसाम्यम् अस्ति अर्थभेदः अस्ति। किमर्थम् एतत् सर्वम् अद्य किञ्चित् टैम् पास् कुर्वन् अस्मि इति भवन्तः भवत्याः कृपया मा चिन्तयन्तु। तत्र वैयाकरणानां दृष्टिः कथं भवेत् इति परिचयं कारयितुम् अहम् इदानीं अस्यां कक्षायां किमपि सूत्रं वा सूत्रार्थः वा वृत्तिः वा प्रक्रिया वा न दर्शितं। वैयाकरणानां दृष्टिः प्रथमं तत्र इदानीं केचन लक्ष्यैकचक्षुष्काः पाणिनिसदृशाः इत्युक्ते लक्ष्यं सर्वं जानन्ति तदनन्तरं ते सूत्राणि प्रणीनाय इत्युक्ते लक्षणं कृतम्। इदानीम् अस्माभिः अपि प्रयोगः इत्युक्ते रूपं ज्ञातव्यम् अस्माभिः साध्यं प्रक्रिया करणसमये वाट् इस् दट् फैनल् स्टेप् वि शुड् नो। इदानीं सर्वशब्दस्य चतुर्थीविभक्तिः इति वदामि तत् सर्वशब्दस्य चतुर्थीविभक्ति प्रक्रियाम्बिकत इति असैन्मेण्ट् ददामि चेत् सर्वशब्द इस् लैक् रामशब्द सर्वाय इति रूपस्य प्रक्रिया एवं सि वन्स् यु नो द स्टेप्स् सर्वशब्दस्य सर्वाय इत्यपि कर्तुं शक्यते प्रक्रिया तादृश यदि सर्वनामशब्दः अस्ति चेत् सर्वस्मै करणीयं यदि सर्व इति कस्यचित् नाम अस्ति इदानीं सर्वजित् सर्व सर्वेषा सर्वेषा इति नाम स्थापयन्ति. तदनन्तरं तस्य किं कुर्वन्ति, इदानीं सत्यभामा इत्युक्ते भामा इति आह्वयन्ति, सत्या इति आह्वयन्ति, एवं विश्वनाथ इत्युक्ते विश्व इति आह्वयन्ति. कदाचित् कन्नड मध्ये धनलक्ष्मी इति आह्वयन्ति, धनलक्ष्मी इति नाम स्थापयन्ति. किम् आह्वयन्ति, धन इति आह्वयन्ति. धन इति इत्युक्ते कन्नडभाषायां धनलक्ष्मी इति, धनलक्ष्मी इति अष्टलक्ष्मीषु अष्टलक्ष्मीषु एका लक्ष्मी, एक लक्ष्मीः. धन धन इति उच्चारणं क्रियते चेत् धन इत्युक्ते कौ इति भवति. धनलक्ष्मी इति मांगलिकं नाम स्थापयन्ति, अनन्तरं धन इति आह्वयन्ति. एतादृशं किं भवति. अत एव अस्माभिः प्रयोगं ज्ञात्वा किञ्चित् व्याकरणानां दृष्टिः कथं भवेत्. इदानीं सर्वेषां शब्दानां प्रक्रिया वयं ज्ञास्यामः, रूपमेव न जानीमः चेत् क्लेशाय भवति इति तात्पर्यम्. हा, इदानीं युष्मदस्मद्भवत् किं शब्दस्य सर्वे जानन्ति. अस्तु, पञ्चत्रिंशत् सर्वादयः इति एकवारं कृपया अर्थं, गृहे कोशादिकम् अस्ति चेत् आन्लैन् कोशः अस्ति, आन्लैन् कोशः स्पोकन् सान्स्क्रिट् डाट् डि अस्ति, एतद् मोनियर् विलियम्स् आन्लैन् अपि अस्ति, स्क्रैब् सान्स्क्रिट् ई बुक्स् डाट् काम् मध्ये किमस्ति, शब्दकल्पद्रुमः डौन्लोड् अस्ति, परन्तु डौन्लोड् करणे क्लेशः इत्युक्ते पञ्च फैल्स् सन्ति, पञ्च फैल्स् डौन्लोड् करणं नाम घण्टाद्वयं स्वीक्रियते, परन्तु तत्र वाचस्पत्यं शब्दकल्पद्रुमः अस्ति, तत्रापि द्रष्टुं शक्यते. गृहे यद्यपि यत्किमपि डिक्षनरि अस्ति तत्रापि द्रष्टुं शक्यते. एतेषां प्रयोगाः ज्ञात्वा एव तत्र प्रक्रिया विषये प्रविशामः इति मम आशा आसीत्. अस्तु, इदानीं प्रथमसूत्रं प्रति गच्छामः. सर्वादीनि सर्वनामानि इति प्रथमं सूत्रम्. अत्र पदद्वयं विद्यते, सर्वादीनि सर्वनामानि इति संज्ञासूत्रमेतत्, प्रथमाध्यायस्य प्रथमपादस्य सप्तविंशतितमं सूत्रम्. सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः इति सूत्रार्थः. अत्र सर्वनामता संज्ञा विधीयते, अत्र सर्वनामसंज्ञा विधीयते. इदानीं प्रश्नः, अत्र संज्ञा संज्ञा का का सन्नी 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 सन्निनः के, जानकी कामकोटि प्रश्नं प्रष्टुम् इच्छति इति मन्ये. जानकी भगिनी प्रश्नं प्रष्टुम् इच्छति वा? जानकी भगिनी प्रश्नं न पृष्टवती. अस्तु, सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः. अत्र पाणिनिना महती संज्ञा कृता, सर्वनामानि सर्वनाम इति महती संज्ञा कृता. इत्युक्ते कदाचित् सा किं करोति, शार्ट् नेम् टि घु भा इत्यादि, इदानीम् अचोन्त्यादि टि इति टि घु भा भसंज्ञा इत्यादि लघु लघु संज्ञा करणं करोति कदाचित् दीर्घ संज्ञा करणं करोति यदि दीर्घ संज्ञां करोति तस्य तात्पर्यं किमपि भवति तात्पर्यं इत्युक्ते पर्पस् प्रयोजनं किमपि भवति प्रयोजनम् अनुद्दिश्य मन्दोपि न प्रवर्तते इति अस्ति वाक्यम् इदानीं सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः महती संज्ञा पाणिना कृता तत्र सर्वनामानि सर्वनाम इत्येव संज्ञा किमर्थं कृतं सर्वनाम इत्युक्ते किम् इत्युक्ते सर्वेषां नामानि सर्वनामानि इति भवति एतस्य तात्पर्यं कोऽपि वक्तुं शक्नोति वा सर्वेषां नामानि सर्वनामानि वाट् डस् दिस् मीन् केन् सम्बडि एक्स्प्लेन् केन् यु गेस् वै हि हस् केप्ट् दिस् नेम् अस् सर्वनाम अन्वर्थसंज्ञा इति अस्ति अन्वर्थसंज्ञा सम्टैम्स् हि द संज्ञा दट् पाणिनि गिव्स् इस् अन्वर्थसंज्ञा लैक् प्रातिपदिकं प्रातिपदिकम् इस् एन् अन्वर्थसंज्ञा पदे पदं पदं प्रति प्रातिपदिकम् अन्वर्थसंज्ञा अस्ति सर्वनामसंज्ञा अपि अन्वर्थसंज्ञा अस्ति तर्हि सर्वनाम इत्युक्ते किम् इत्युक्ते सर्वेषां नामानि सर्वनामानि सर्वनामानि सर्वा कानि सर्वनामानि सर्वादीनि सर्वादीनि कति सन्ति गणः अस्ति वा अस्ति आदौ गणपाठः ततः सूत्रपाठः सो हि हस् डन् दि गणः फस्ट् सर्वादीनि सर्वादिगणे के शब्दाः पठिताः इदानीमेव दृष्टवन्तः पञ्चत्रिंशत् शब्दाः सन्ति तत्र मूले पट्टिका दत्ता इदानीं सर्वेषां नामानि सर्वनामानि वाट् इस् द कान्सेप्ट् आफ् दिस् सर्वेषां नामानि किञ्चित् 100% रैट् आन्सर् इति वक्तुं न शक्यते समीचीनमिति किञ्चित् परन्तु आलोच विचारदृष्टिः समीचीना विद्यते विचारदिशा समीचीना विद्यते जस्ट् अनलैस् दिस् अहं सर्वादिगणे के शब्दाः पठिताः सर्वशब्दः पठितः तत्शब्दः पठितः सः तौ ते तत्शब्दः अयम् इमौ इमे इति शब्दः पठितः इदं शब्दः इदानीं सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि सर्वेषां नामानि इदानीं ये सर्वादिगणे पठिताः सर्वे शब्दाः सर्वेषां नामानि सर्वे शब्दाः सर्वनाम इति संज्ञां लभन्ते तत्र सर्वशब्दस्यापि सर्वनामसंज्ञा अस्ति तत्शब्दस्यापि सर्वनामसंज्ञा अस्ति तत्तु वयं जानीमः अत एव संज्ञाका संज्ञिनः के इति अहं पृष्टवान् मध्ये अवान्तरप्रश्नः अभवत् अत्र संज्ञाका सर्वनाम इति संज्ञा सर्वनाम इति संज्ञा संज्ञिनः सर्वादीनि इत्युक्ते पञ्चत्रिंशत् द लिस्ट् आफ् 35 पञ्चत्रिंशत् द लिस्ट् आफ् 35 वर्ड्स् गेट् ईच् आफ् देम् गेट् द वर्ड् सर्वनाम नौ इदानीं किम् इत्युक्ते सर्वनाम इति अन्वर्थसंज्ञा कथम्? वै इट् इस् काल्ड् सर्वनाम इत्युक्ते इदानीं तच्छब्दं स्वीकरोतु, तच्छब्दे सः तौ ते अथवा सा ते ताः तत्ते तान्, सः इत्युक्ते रामः कृष्णः मुकुन्दः गोविन्दः, लोके लोके ये ये शब्दाः सन्ति पुल्लिङ्गशब्दाः तत्र सर्वत्र सः इति उपयोक्तुं शक्यते वा न वा? हा, अत एव तादृशशब्दाः एव अत्र गणे पठिताः. The words included in 35 in the Sarvanama group are those shabdas. Each of those shabdas can be a substitute for many nouns existing in this world. That is why it is called Sarvanama. Tad asti, idam asti, yakkimapi svikarotu madhye. सर्वे शब्दाः सर्वेषां नामानि सर्वनामानि, दे केन् बिकम् ए नेम् फार् एव्रिथिङ्ग्. इदानीं रामः इति एकवारम् उक्त्वा अनन्तरं सः 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 इति अहं वदामि, एवं सः इति इत्यस्य रामः इत्यपि भवति, अनन्तरं लक्ष्मणः इति उक्त्वा सः एवं कृतवान् इति वदामि, सः शब्दस्य लक्ष्मणः इत्यपि अर्थः भवति, अनन्तरं सः भीमः इति उक्त्वा सः शब्दस्य भीमः इत्यपि अर्थः, महादेवन् इत्यपि अर्थः सः शब्दस्य. एवं सर्वेषां नामानि सर्वनामानि, सर्वनाम इति संज्ञा आगतम् इदानीं, सर्वशब्दस्य सर्वनामसंज्ञा अस्ति, सर्वशब्दस्य इदानीं यदा सर्वशब्दः उपयुज्यते तदा सर्वशब्दः for any noun in this world you can use sarva shabda, even for any noun you can use tat shabda, any noun you can use ayam shabda, any relevant noun. Idanim streelingasya krite aham pullinga shabdam upayogam karomi, tadrisha vitandavadah na karaniyah. Parantu panina kim kritam sarvadigane patitah sarve shabdah sarvanama sanyam svikurvanti. सर्वनाम इति अन्वर्थसंज्ञा, सर्वेषां नामानि सर्वनामानि, एकैकशब्दोऽपि सर्वेषां नामानि भवितुम् अर्हति, तस्य अर्हता अस्ति, अतः सर्वनाम इति संज्ञा. अवगतं वा? हा, तन्त्रं नास्ति, परन्तु यदा यदा सः महती संज्ञा करोति किञ्चित् तस्य विशेषः भवति, किमपि तन्त्रं नास्ति. इसि तत्र एकं वाक्यमस्ति, अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः. यदि अर्धमात्रा लाघवं तैः सम्पाद्यते, इफ् इन्स्टेड् आफ् यूसिङ्ग् वन् two matras, if they have reduced it to one and a half matras, or if instead of using one matra, if they have reduced the usage to one matra in a sutra or in a usage, they feel it is a putrotsava. Putra janana sandarbhe yadrisha santoshaha te anubhavanti, tadrisha santosham te anubhavanti ardhamatra laghavena. Paniniya api vajyakarnaha. यद्यपि लाघवं सः लाघवं बहु इच्छति, लाघवम् इत्युक्ते ब्रेविटि, हि लैक्स् टु कीप् इट् सिम्पल् अण्ड् बट् अनम्बिग्युस्, सूत्रलक्षणम् अस्ति, असन्दिग्धं भवेत् सारवत् विश्वतोमुखम्, असन्दिग्धं भवेत् अल्पाक्षरं भवेत्, असन्दिग्धं भवेत् तदपि भवेत्. अनन्तरम् अस्ति अत्र विशेषः अपि वक्तव्यः, अन्वर्थसंज्ञा करणीया इति सः चिन्तितवान्, अतः सर्वनाम इति आल्मोस्ट् फोर् लेटर्ड् वर्ड् हियर् केप्ट्, अत एव विशेषः अस्ति. अत्र तद्गुणसंविज्ञानबहुव्रीहिः अस्ति. इदानीं सर्वनाम इत्यस्य विग्रहवाक्यं किम्?
सर्वनाम इत्यस्य विग्रह वाक्यं किम्? सर्वेषां नामानि सर्वनामानि इति तु अन्वर्थ अर्थ इत्युक्ते समासः कथं भवति इत्युक्ते तद् सर्वनाम सर्वेषां नामानि सर्वनामानि सर्वादीनि इत्यत्र विग्रहवाक्यं किम्? सर्वादीनि सर्वः आदिः अत्र सर्वादीनि इति कृतवान् किल, अतः सर्वः आदिः येषां तानि सर्वनामानि सर्वः आदिः येषां सर्वः नाम सर्वशब्दः सर्वशब्दः आदिः आदिः नाम प्रथम फस्ट् आदिः आद्यवयवः इति अर्थः सर्वः सर्वशब्दः आदिः आद्यवयवः येषां येषां नाम शब्दस्वरूपाणां तानि सर्वनामानि तानि सर्वादीनि इति विग्रहवाक्यम्। अत्र तद्गुणसंविज्ञानबहुव्रीहि अस्ति, यद्यपि बहुव्रीहिसमासः अस्ति तथापि अत्र तद्गुण बहुव्रीहेः बहुव्रीहिः द्विधा, तद्गुणसंविज्ञानबहुव्रीहि अतद्गुणसंविज्ञानबहुव्रीहि इति। अतद्गुणसंविज्ञानबहुव्रीहि इत्युक्ते किम्? एतत् मया पूर्वमुक्तं, कुत्रचित् मया उक्तम्, एतत् कुत्र उक्तमिति अहं न स्मरामि, परन्तु उक्तं तद्गुणसंविज्ञान अतद्गुणसंविज्ञानविषये कदाचित् प्रस्तावः कृतः। कुत्र कृतम्? यस्मात् प्रत्ययविदित्सदादिप्रत्ययङ्गम् यस्मात् प्रत्ययविदित्सदादिप्रत्ययङ्गं तत्र कृतं वा? तदादिः तदादिः यस्मात् प्रत्ययविदित्सदादिप्रत्ययङ्गम् इत्यत्र तदादि इत्यस्य मया व्याख्यातं प्रायः। अस्तु, पुनः वदामि, तत्र चिन्ता नास्ति। कोऽपि स्मरति वा तद्गुणसंविज्ञान अतद्गुणसंविज्ञान बहुव्रीहि? इदानीं बहुव्रीहेः लक्ष बहुव्रीहे बहुव्रीहिसमासस्य लक्षणं किम्? प्रायः अन्यपदार्थप्रधानः बहुव्रीहिसमासः अन्यपदार्थप्रधानः बहुव्रीहिसमासः। उदाहरणं पीताम्बरः पीताम्बरः गच्छति इति क्रियापदम् एकं योजयामः। न पीतं गच्छति, नाम्बरं गच्छति, पीताम्बरः गच्छति, पीताम्बरः अत्र विष्णुः, अतः विष्णुः गच्छति इति तात्पर्यम्, अतः अन्यपदार्थप्रधानः बहुव्रीहिः इति उच्यते। इदानीं पीताम्बरः विष्णुः इति कथनसमये विष्णुशब्दः यदा आगच्छति, अन्यपदं यदा आगच्छति, तदा पूर्वोत्तरपदानि तत्र सन्ति वा? पीतं वा पूर्वोत्तरपदानि अत्र पूर्वोत्तरपदे के? पीतम् अम्बरं तत्र नास्ति, पीतशब्दस्यापि उल्लेखः नास्ति, अम्बरशब्दस्यापि उल्लेखः नास्ति। एवं विष्णुशब्दस्य अन्यपदार्थस्वीकारात् किम् आगतम्? तद्गुणं न स्वीकृतं, पीतस्य गुणः न स्वीकृतः समस्तपदे,
పీతత్వం వా అంబరత్వం వా నా స్వీకృతం తత్ర. పరంతు విష్ణు యహ పీతాంబర విష్ణు అస్తి తస్యైవ ప్రధానత్వం ఆగతం. అతః ఏవం అభవత్. ఏతాదృశ ఉదాహరణేషు అతద్గుణ సంవిజ్ఞాన బహువ్రీహి ఇతి ఉచ్యతే. తద్గుణ సంవిజ్ఞాన బహువ్రీహి ఇత్యుక్తే ఇదానీ సర్వాదీని సర్వనామాని. ఇదానీ సర్వాదీని అస్తి సర్వ ఆదిహి ఏషాంతే ఇది. అక్కడ సర్వశబ్దః స్వీక్రియతే వా అనవా? స్వీక్రియతే. పీతం అంబరం ఇత్యత్ర పీతశబ్దః స్వీకృతః వా? నస్వీకృత. అతః అతద్గుణ సంవిజ్ఞాన బహువ్రీహి. బహువ్రీహి ఇస్ ఆఫ్ టూ టైప్స్, అతద్గుణ అండ్ తద్గుణ. వేర్ ది హియర్ సర్వాదీని సర్వనామాని ఇత్యత్ర కిం ఇత్యుక్తే గుణ అన్యపదార్థప్రదానః అపి భవతి. అన్యపదార్థప్రదానః భవతి బహువ్రీహి సమాసే. పరంతు అన్యపదార్థప్రదాన సహితం సమస్యమాన పదానాం అర్థానాం ప్రవేశః యది భవేత్ తదా తద్గుణ సంవిజ్ఞానః బహువ్రీహి భవతి. అన్యపదార్థః భవతి పరంతు సమస్యమాన శబ్దానాం వా పదానాం వా త్యాగః. పీతం అంబరం యస్య సః ఇత్యత్ర పీతశబ్దస్య పీతశబ్దస్య త్యాగః అంబరశబ్దస్య త్యాగః అన్యపదార్థః విష్ణుః ఇతి స్వీక్రియతే మనసి. అతః పీతాంబరశబ్దస్య పీతాంబర శబ్దయోః త్యాగః అభవత్. ఏవం యదా త్యాగః పూర్వోత్తరపదయోః యదా త్యాగః భవతి తదా అతద్గుణ సంవిజ్ఞాన బహువ్రీహి ఉచ్యతే. యదా పూర్వోత్తరపదయోః కదాచిత్ ఏకః స్వీక్రియతే ఇదానీం సర్వాదీని సర్వనామాని యథా అత్ర సర్వః ఆదిః ఏషాం శబ్దరూపాణాం తే తాని సర్వాదీని ఇది ఉచ్యతే చేత్ సర్వశబ్దః అత్ర స్వీక్రియతే అర్థ అర్థే. అతః కిం క్రియతే తద్గుణ సంవిజ్ఞాన బహువ్రీహి ఇతి ఉచ్యతే. ఏతద్ ఇదానీం సప్ ఇదానీం మయా ఉచ్యతే. ఏకం వాక్యం స్మరామః. పీతాంబరం ఆనయ ఇత్యత్ర తత్ పీతవర్ణ వస్త్రమానయ ఇత్యత్ర చేత్ తర్హి బహువ్రీహి ఏవ న భవతి. పీతాంబరం పురుషమానయ ఇతి స్వీక్రియతే చేత్ ఇదానీం కిం భవతి? తర్హి ఇదానీం సయేవ ప్రశ్నః భో ఏతత్. తర్హి తద్గుణ సంవిజ్ఞాన బహువ్రీహి తదేవ కిల తద్గుణ సంవిజ్ఞాన బహువ్రీహి ఏవ భవతి పీతాంబరం తదేవ పీతాంబరం ఆనయ ఇత్యుక్తే పీతవర్ణోపేత పురుషః పురుషం ఆనయ ఇత్యర్థః. తర్హి పీతో వర్ణోపేత పురుషం ఆనయతి. ఇదానీ పీతవర్ణ ఆగతః వా న వా? అంబర ఆగతః. పీతాంబర సహితమేవ ఆగతవాన్. తర్హి తద్గుణ సంవిజ్ఞాన బహువ్రీహి ఏవ అభవత్. తర్హి పీతాంబర ఇత్యపి తద్గుణ సంవిజ్ఞాన బహువ్రీహి ఏవ నతో అతద్గుణ సంవిజ్ఞాన బహువ్రీహి. అస్తు అన్యదుదాహరణం పశ్యామః. అతద్గుణ సంవిజ్ఞాన బహువ్రీహే ఉదాహరణ శుద్ధోదాహరణం ఆవశ్యకం. ఏకనిమిషం. तत्र दृष्टमथुरः इति अस्ति. दृष्टा मथुरा येन सह, इदानीं दृष्टमथुरपुरुषमानय, यः मथुरां दृष्टवान् तं पुरुषमानय. तर्हि मथुरा आगच्छति वा? मथुरा नागच्छति. हा, तर्हि समस्या इदम् अत्र. तर्हि दृष्टमथुरशब्दः शुद्धोदाहरणम् अतद्गुणसंविज्ञानबहुव्रीहे, न तु पीताम्बरः. मया तत्र व्यत्ययेन उक्तः, अहमपि एवमेव प्रश्नं पृष्टवान्, तद् सम्यक् न अभवत्. अतद्गुणसंविज्ञानबहुव्रीहि इत्युक्ते दृष्टमथुरः समस्यमानपदानां प्रवेशः न भवति. अत एव मम गुरवः महाबलेश्वरभट्टाः यदा पाठितवन्तः, सर्वदा समासविग्रहवाक्यकथनसमये उत सर्वदा समासविषये कश्चित् निर्णयः, निश्चयः, निर्धारः स्वीकरणीयं चेत् एकं वाक्यं रचनीयम्. इदानीं पीताम्बरः पीताम्बरम् आनय इति यदा कृतं तदा एव ज्ञातम्, ओ एतत् तद्गुणसंविज्ञानबहुव्रीहे एव उदाहरणम् इति. यदा पीताम्बरः इति उक्तः तदि ओ विष्णुः इति अस्माभिः कृतम्. वाक्यरचना करणीया, वाक्यरचक्रियापदं योजयित्वा, एकं तिङन्तं योजयित्वा वाक्यरचना सदा करणीया, तदा एव भ्रमः निस्सरति. इदानीं भ्रमः निःसृतः. दृष्टमथुरः इति शब्दे दृष्टामथुरा येन सह दृष्टमथुरम् आनय इत्युक्ते अतद्गुणसंविज्ञानबहुव्रीहिः. हा, चित्रागावः, एतदेव उदाहरणं स्मर्तुम् इष्टवान्. चित्रागावः यस्य सः, चित्रगुः इति अस्ति. चित्राः गावः नाम one who has many cows, many the chitraha, the spotted cows ki santi kila chitraha gavaha yasya saha. Idanim chitrabhum anaya ityukte kim bhavati? Chitrabhum anaya atad guna samvijnana bahuri. एवं तत्र एकं क्रियापदं योजयित्वा एव निर्णयः कर्तुं शक्यते. तद् आनय इत्यादि, गच्छ इत्यादि क्रियापदं स्वीकृत्य एव निर्णयः कर्तुं शक्यते. अत्रापि सर्वादीनि इत्युक्ते सर्वः आदिः येषां शब्दरूपाणां तानि सर्वादीनि. अस्तु, अग्रे गच्छामः. एतदुद्भूतावयवः अनुद्भूतावयवः इति अन्यदेकः अंशः अस्ति. इदानीम् एतद्विषये किञ्चित् वदामि, अग्रिमकक्षायामपि पुनः वदामि. कदाचित् समुदायस्य यदा समुदायः नाम इदानीं सर्वशब्दः समुदायद्योतकः, सर्वशब्दस्य अर्थः कः? आल् इति भवति. आल् इत्युक्ते समुदायशब्दः अस्ति. समुदायशब्दः यदि अस्ति चेत् कदाचित् उद्भूतावयवः वा भवेत्, अनुद्भूतावयवः वा भवेत्, यदा वक्ता समुदायकथनसमये अवयवस्य परिगणनाम् अकृत्वा केवलं समुदायं वक्तुम् इच्छति, तदा अनुद्भूतावयवः समुदायः भवति. समुदायः अस्ति भो, समुदायकथनसमये समुदायस्य अवयवाः भवन्ति. इदानीं మనుష్యాః ఇత్యుక్తే మనుష్యాన అవయవః భవంతి ఏకః మనుష్యః ద్వితీయః మనుష్యః తృతీయః మనుష్యః ఇత్యాది మనుష్యాః ఇత్యుక్తే భారతీయాః అమెరికా జనాః సింగపూర్ జనాః ఇత్యాది అవయవాః సంతి ఏవం సముదాయః ద్విప్రకారకః భవతి అనుద్భూతావయవః ఉద్భూతావయవః ఇతి యదా వక్త కేవలం సముదాయ కథనే తస్య తాత్పర్యం అస్తి తదా అనుద్భూతావయవః ఇత్యుక్తే అవయవస్య పరిగణన సందర్భే సహ తస్య తాత్పర్యం నాస్తి. ఇదానీం వృక్ష ఏకం ఉదాహరణం స్మరామి అహం ఇదానీం. బాలకః వృక్షాన్ సించతి. ఇదానీం ఏకం ఉపవనమస్తి, ఉపవనే దశవృక్షాః సంతి. దశవృక్షాః సంతి. బాలకః కిం కృతవాన్? వృక్షాన్ సించతి. ఇదానీం యది బాలకః వృక్షచతుష్టయస్య సేచనం కృత్వా బహిరాగచ్చతి, పంచమవృక్షాత్ దశమవృక్షపర్యంతం సహ సేచనం న కరోతి చేత్ తదాపి బాలకః వృక్షాన్ సించతి. అస్మాకం కథనే తాత్పర్యం బాలకః వృక్షం సేచితవాన్ వా న వా? వృక్షాన్ సేచితవాన్, అతః వృక్షాన్ సించతి ఇది అస్మాభిః ఉక్తం వాక్యం. ఏవం యదా అవయవానాం పరిగణనా విషయే ఇత్యుక్తే నాట్ కన్సిడరింగ్ ద పార్ట్స్ ఇన్సైడ్ ది హోల్, ఇఫ్ ది హోల్ ఇస్ రెఫర్డ్ ఇట్ ఈస్ కాల్డ్ అనుద్భూత అవయవ. అనుద్భూత మీన్స్ అవయవ పార్ట్స్ ఆర్ నాట్ గెటింగ్ రిఫ్లెక్టెడ్ ఇన్ ఉద్భూత అవయవ. ఇత్యుక్తే పార్ట్స్ ఎత్ర వక్త వక్తుః అభిప్రాయః ఇదానీం అవయవం సహ వక్తుః అభిప్రాయః సముదాయస్య కథనం అస్తి, తథాపి సహ కిం కరోతి అవయవస్య ఏకః వా ద్వౌ వా తద్ సముదాయాంతర్గత అవయవానాం నిర్దేశః కరోతి. ఇత్యుక్తే నిర్దేశాన వెన్ హీ ఈజ్ ట్రైయింగ్ టు వక్త, వెన్ వక్త వాంట్స్ టు ఆల్సో కన్సిడర్ ద పార్ట్ వెన్ హీ ఈజ్ డిస్క్రైబింగ్ ద హోల్ దెన్ ఇట్ ఈస్ కాల్డ్ అస్ ఉద్భూత అవయవ. క్షమ్యతాం ఏతాదృశ వెన్ సమ్ కాన్సెప్ట్స్ హ్యావ్ టు బి టోల్డ్. మమ తావత్ సామర్థ్యం నాస్తి సంస్కృత సరళ సంస్కృత భాషాయాం ఉక్త్వా కాన్సెప్ట్స్ కెన్ బి ఎక్స్ప్లెయిన్, తావత్ సామర్థ్యం మమ నాస్తి, అతః కదాచిత్ ఆంగ్ల భాషా సహాయం స్వీకరోమి. సంస్కృత భారతీ జనాః క్లేశం అనుభవేయుః ఏషః కథం, పరంతు తథాపి అవగమనం అత్ర తాత్పర్యం నతు సంస్కృత సంభాషణం ఇతి మత్వా అహం కదాచిత్ అహం ఆంగ్ల భాషా సహాయం స్వీకరోమి. ఉద్భూతావయవః అనుద్భూతావయవః ఇదానీ సర్వశబ్దే ఏతత్ కిమర్థం ఆగతం ఇత్యుక్తే యదా సర్వశబ్దః అనుద్భూతావయవ సముదాయస్య వివక్ష సర్వశబ్ద కథన సమయే అనుద్భూతావయవ రూపేణ సముదాయస్య వివక్ష ఇది భవతి తదా ఏకవచనం భవతి, ఏకవచనమేవ భవతి. యదా ఉద్భూతావయవః ఉద్భూతావయవస్య వివక్షా భవతి తదా ద్వివచన బహువచన ప్రయోగః భవతి. ఇదానీం ఏతత్ కథం ఆగతం ఇత్యుక్తే ఏకః మమ ఛాత్రః ఆసీత్, సః బ్రిలియంట్ ఛాత్రః ఆసీత్. సః మాం ప్రశ్నం పృష్టవాన్ వ్యాకరణ పఠనాత్ ప్రాక్, ఇత్యుక్తే పాణినీయ వ్యాకరణ పఠనాత్ ప్రాక్. అహం లఘు సిద్ధాంతకౌమురీ వా సిద్ధాంతకౌమురీ కిమపి న పఠితవాన్, तदा सः व्याकरणकथनसमये प्रश्नं पृष्टवान् सर् वाट् इस् द मीनिङ्ग् आफ् सर्वशब्दः सर् आल् आल् इत्युक्ते किमर्थम् एकवचनं बहुवचनम् आवश्यकं कदाचित् एकवचनं द्विवचनम् आवश्यकं कदाचित् भवन्तः वदन्ति किम् इति नित्यं बहुवचनान्तः अप्शब्दः नित्यं द्विवचनान्तः उभशब्दः इत्यादि वदन्ति किल नित्यम् एकवचनान्तः एकशब्दः तस्तु नित्यं बहुवचनान्तः सर्वशब्दः इति कर्तुं शक्यते स्म किमर्थं सर्वशब्दस्य एतादृशव्यवहारः सर्वः सर्वौ सर्वे समशब्दस्यापि समः समौ समे इत्यादि व्यवहारः कथम् इति प्रश्नः अहं तु ऐ वास् वण्डर्स्टक् बै द क्वश्चन् किम् उत्तरं दातव्यम् इति अहं मम नथिङ्ग् फ्लाश् अहम् उक्तवान् अहं न जानामि इत्येव उक्तवान् दशवर्षानन्तरं यदा पाणिनीप्रवेशं पाणिनीयव्याकरणप्रवेशं कृतवान् तदा ज्ञातवान् उद्भूतावयवः अनुद्भूतावयवः इति सो वेन् यु आर् ट्रैङ्ग् टु टेल् एन् अनुद्भूतावयव वेर् दि पार्ट्स् आर् नाट् इम्पार्टेण्ट् इन् युवर् कान्वर्सेशन् आर् ए ट्रान्साक्षन् आर् रिसन् तदा एकवचनप्रयोगः एव समीचीनं तत्र अत्र प्रयोगः एवमस्ति चाणक्यस्य प्रयोगः अस्ति मुद्राराक्षसनाटके न हि सर्वः सर्वं जानाति इति प्रयोगः अस्ति श्रुतं वा मुद्राराक्षसनाटकं पठितं वा चलचित् वा कयाचित् वा मुद्राराक्षस परन्तु एतद् वाक्यं तु सर्वत्र आगच्छति न हि सर्वः सर्वं जानाति इति आगच्छति तदा समुदा अनुद्भूतावयवः सर्वशब्दस्य तात्पर्यं चाणक्यस्य तद्वाक्यकथने तस्य तात्पर्यं किम् अस्ति इत्युक्ते अवयवस्य परिगणनं न करोति तदा किं भवति एकवचनप्रयोगः भवति इदानीम् अहम् अन्यद् उदाहरणं वदामि सर्वे पाण्डवाः वनम् अगच्छन् इति अस्ति उद्भूतावयवस्य विवक्षा उद्भूतावयवः अत्र विवक्षा किं सर्वे इति विवक्षा अस्ति पाण्डवाः इति उक्तत्वात् पञ्चपाण्डवाः सन्ति सर्वे गतवन्तः इत्यादि विवक्षा मनसि विद्यते अतः प्रायः बहुवचनप्रयोगः अत्र इति एतद् मम एव अनालिसिस् अस्ति तथापि ज्येष्ठाः प्रष्टव्याः अत्र प्रयोगविषये परन्तु एतादृशसंशयनिवारणम् एतादृशरीत्या कर्तुं शक्यते इति अहं चिन्तितवान् सदगोपन् महोदयः किमपि जानाति वा एतद्विषये सदगोपन् महोदयः इसि अलर्ट् बट् यु but you can think on this lines on these lines because this question was asked by a 7th standard student to me when I was teaching him sarvashabda and at that time I had not studied paniniya vyakaranam I couldn't even answer his question but even now anybody can ask these questions to you also all of us tarhi katham tasya udbhutavayavah anudbhutavayavah etadeva concept asti iti mama abhiprayah samudayah dvitrakarakah bhavati evam vaktum shakyate tasya samadhanam the whenever a group is addressed, it is of two kinds, where the parts, tatra, the group as a whole is addressed, not considering the parts inside, not giving due consideration to the parts, the group as a whole is addressed, but giving consideration to two of its parts or three of its parts. So when two or three consideration is given, tada it is called udbhuta avayavaha. Avayavaha udbhavati. Udbhuta avayavaha. Avayavaha udbhavati. Where consideration is not given, anudbhuta avayavaha. Sarva shabda can be used in both contexts. So anudbhuta avayava and samudaya vivaksha. Udbhuta avayava and samudaya vivaksha. That is why Panini has kept ekavachana dvivachana bahuvachana for sarva shabda. Iti nirnaya. Nirnaya va iti analysis asti. Okay. Atreva samapayanaha. विलम्बः अभवत् विलम्बेन प्रारब्धस्तुतः अतः विलम्बः अभवत् अस्तु इदानीम् एकमेव सूत्रम् अभवत् परन्तु सर्वनामशब्दानां विषये किञ्चित् अर्थज्ञानम् अवश्यम् अस्माभिः करणीयं प्रयोगज्ञानमपि करणीयम् अग्रे किञ्चित् शब्दानां प्रक्रियाविषये विशेषप्रक्रियाविषये ज्ञास्यामि ऐ वुड् रिक्वेस्ट् आल् आफ् यु टु थिङ्क् अबौट् दिस् सर्व शब्द कदाचित् कक्षा द क्लास शुड ऑलवेज नॉट बी वन साइडेड वेयर आई एम टेलिंग समथिंग यू आर ऑल लिसनिंग समथिंग एंड यू जस्ट लिसन एंड गो अवे एंड इफ आई हैव टोल्ड समथिंग रॉन्ग आर इनकरेक्ट बिकॉज ऑफ माय लिमिटेड एक्सपोजर टू नॉलेज तदा किं भवति क्लेशः भवति अतः एव चिंतनम् अस्माभिः अपि करणीयम् इति तात्पर्यम् येनाक्षरस्वां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् राम 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 शुभरात्रिः सर्वेषाम्।